शैले मल्लिकार्जुनम् उज्जयिन्या महाकालम् ओंकारम् ममलेश्वरम् परल्यां वैद्यनाथं च डाकिन्यां भीमशंकरम् सेतुबन्धे रामेशं नागेशं पशुपतिं मुक्तिगुप्तेश्वरं शिवं मिंटो ग्राम गुहामध्ये ज्योतिर्लिंगं त्रयोदशं एतानि ज्योतिर्लिंगानि सायं प्रातः पठेन्नर शतजन्म कृतं पापं स्मरणे ज्योतिर्लिंगार्चनं नृणा शिवसायुज्यदायकं विद्यां बुद्धिं धनं धान्यं धर्मं मुक्तिं च यच्छति।